एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। सांविधानिक आयोगानां पदाधिकारिणां नियुक्तेर्विरुद्धे पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य सम्बन्धे सर्वोच्च न्यायालयेन कारण प्रदर्शनादेशः प्रदत्तो वर्तते। यः उपविष्टेन सांविधानिक न्यायपीठेन सांविधानिक निकायेषु विहितायाः नियुक्तेः आधारं कारणं च प्रस्तुतुं विपक्षी आदिष्टो वर्तते। कार्यवाहक प्रधान न्यायाधीशस्य दीपक कुमार कार्किणः, न्यायाधीशानां मीरा खड्का, हरिकृष्ण कार्की, विश्वम्भर प्रसाद श्रेष्ठ, ईश्वर प्रसाद खतिवड़ा विधानां च न्यायपीठेन ह्यो विहितस्य श्रवणस्य पश्चात् विपक्षितो लिखितोत्तरम् अभियाचितमस्ति। सांविधानिक परिषदध्यादेशस्य माध्यमेन तात्कालिकेन केपी शर्मा ओलिनो नेतृत्वस्य सर्वकारेण विभिन्नानाम् आयोगानां प्रमुखेषु पदाधिकारिषु च विहितायाः नियुक्तेः निरसनम् अभियाच्य निवेदनं पञ्जीकारितम् आसीत्। सांविधानिक न्यायपीठेन अधिवक्तृद्वयस्य गणेश रेग्मिणः, दीपक विक्रम मिश्रस्य च आदेशाभियाचन निवेदनं निरस्तीकृतमस्ति। अधिवक्त्रा रेग्मिणा प्रधान न्यायाधीश रहितस्य सांविधानिक न्यायपीठस्य कार्याणां निरोधनम् अधिवक्त्रा मिश्रेण, प्रधान न्यायाधीशेन चोलेन्द्र शमशेर जवरा इत्यनेन विना सांविधानिक न्यायपीठं न संचालनीयमिति च अभियाच्य निवेदनं पञ्जीकारितम् आसीत्। प्रधानमन्त्री शेरबहादुर देउवा निगदति वातावरणीय विनाश प्राकृतिक प्रकोपस्य संकटस्य वर्तमान प्रमुख समस्या वर्तते। एतत् ख्रीष्टाब्दीयम् अन्तराष्ट्रिय सबल पर्वतीय विकासस्य सन्दर्भे ह्य काष्ठमण्डपे प्रारब्धं पर्वतीय समाधान सम्बद्धं क्षेत्रीय नीतिगत परामर्श सम्बद्धं च सम्मेलनम् उद्घाटयन् प्रधानमन्त्री देउवा पर्वतीय क्षेत्रम् स्वच्छ जलस्य प्राकृतिक स्रोतस्य रूपे स्थितं वर्तते, पर्वतादेव विश्वस्य अर्धजनसंख्या जलस्य स्रोतांशे प्राप्तानि सन्ति इति चर्चयन् अस्य संरक्षणाय संवर्धनाय च बलम् अदात्। प्राकृतिक प्रकोपेण जलवायु परिवर्तनेन च सृष्टस्य प्रभावस्य कारणेन पर्वतीय क्षेत्रस्य देशै समान प्रकृतेः समस्या प्रतिक्रियमाणा सन्ति इति प्रधानमन्त्री देउवा समस्पष्टयत्। अद्य यावत् सञ्चल्यमाने सम्मेलने विश्वस्य द्वादश देशानां प्रतिनिधीनां सहभागिता वर्तते। नेकपा एमाले दलस्य केन्द्रीय समितेः उपवेशे आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमानस्य निर्वाचनस्य सन्दर्भे विमृष्टं वर्तते। अद्य यावत् सञ्चल्यमाने विवर्सने अध्यक्षस्य केपी शर्मा ओलिनः, महासचिवस्य शंकर पोखरेलस्य च राजनीतिक सामयिक प्रतिवेदनं, सप्तानामेव प्रदेशानाम् अध्यक्षाणां प्रतिवेदनं, नैर्वाचनिक घोषणापत्रं, प्रत्याशिनां चयनस्य मापदण्डश्चेति विषयाः प्रमुख कार्यसूच्यां वर्तन्ते। एवमेव उपवेशे दलस्य विभागानां पूर्णतायाः, निर्वाचने दल नेतृत्वस्य भूमिकायाः, सचिवालयस्य पोलिट ब्यूरो निकायस्य च उपवेशस्य निर्णयस्य अनुमोदनस्य च विषयेषु विमृश्यते। गृहमन्त्री बालकृष्ण खाण कथयति शान्तिपूर्णं स्वच्छं निष्पक्षं च निर्वाचनं विधातुं सर्वकारः प्रतिबद्धो वर्तते। नेपाली कांग्रेस दलस्य कपिलवस्तु जनपदस्य शिवराजनगर समित्या ह्यः चन्द्रौटा स्थाने आयोजिते कार्यक्रमे गृहमन्त्री खाण देश स्थानीय स्तराणां निर्वाचनं प्रति केन्द्रितोऽस्ति, निर्वाचनाय आवश्यकं सर्वमपि सुरक्षा प्रबन्धनं विहितमस्तीति अज्ञापयत्। गृहमन्त्री खाण श्वः चैत्रस्य एकादश दिवसे उपवेक्ष्यमाणे नेपाली कांग्रेस दलस्य केन्द्रीय समितेरुपवेशे नैर्वाचनिक गठबन्धनस्य विषये विमृक्षते इति ज्ञापितवान्। प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया गदति निर्वाचनं स्वच्छं मर्यादितं च सम्पादयितुं राजनीतिक दलैः आचार संहितायाः पूर्णपालना विधातव्या। निर्वाचनायोगेन नेपाल विधि समाजेन च ह्यो विराटनगरे आयोजिते कार्यक्रमे प्रमुख निर्वाचनायुक्तः थपलिया आगामि निर्वाचनं व्ययसाध्यं न सम्पादयितुं मर्यादितं कारयितुं च आचार संहिता कठोरेण क्रियान्वेष्यते इति समस्पष्टयत्। प्रमुख निर्वाचनायुक्त थपलिया आवासत निर्वाचने आचार संहितायाः उल्लंघनकारिणीं प्रवृत्तिं रोद्धुं राजनीतिक दलैः नागरिक समाजेन च सहयोगो विधातव्यः। युवोद्यमशीलतायाः प्रवर्धनस्योद्देश्येन नेपाल भारतयोर् युव व्यवसायिनां मध्ये अनुभवस्य आदान प्रदानाय आयोजितं तृतीयम् अन्तराष्ट्रियोद्यमशीलता सम्मेलनं ह्यो राजधान्यां प्रारब्धम्। सम्मेलनमिदं संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की, नेपालस्य कृते भारतीय राजदूतः विनय मोहन क्वात्रा च संयुक्त रूपेण उद्घाटयताम्। तदवसरे संचार मन्त्री कार्की अवदत् नेपाल सर्वकारेण उद्यमशीलतायाः विकासाय प्रोत्साहन प्रदायिनी नीतिः अवलम्बिता वर्तते। मन्त्री कार्की अवासत् सर्वकारेण राष्ट्रस्य आर्थिक गतिविधीन् संचरणशीलान् विधातुं वैदेशिक निवेशनं प्रवेशयितुं च निवेशमैत्री नीतिः अवलम्बिता वर्तते। सेवा प्रवाहं सरलीकृत्य प्रक्रियागत समस्या च निवारितास्ति। विधि न्याय संसदीय विषय मन्त्री दिरेन्द्र प्रसाद बडु कथयति वर्तमान सर्वकारेण कर्मचारिणां प्रतिकूलनत्वेन संघीय सर्वकारीय सेवा अधिनियम न आनिष्यते। नेपाल सर्वकारीय कर्मचारी संगठनस्य केन्द्रीय समितेः पदाधिकारिभिः प्रतिनिधिभिश्च सह मन्त्रालये ह्यः विहिते विमर्शने मन्त्री बडु अगदत् कर्मचारिणां अनुकूलतया अधिनियम निर्मातव्यः इति विषये सर्वकारः स्पष्टस्थिति हेतोः तदनुसारेणैव आवश्यकं विमर्शनं विधास्यते। मन्त्री बडु पूर्ववर्ती सर्वकारेण निर्मिते अधिनियम रूपे कर्मचारिणां हित विपरीततया समाविष्टानि प्रावधानानि अपाकर्तुं राज्य व्यवस्था समितौ आत्मना बहुवारं विमर्शनं विहितं। स्वीय पक्षतः लिखित रूपेणैव विमतिश्च प्रकटित इति ज्ञापयन् कर्मचारिणां कृते एव अधिनियमो वर्तते इति हेतोः कर्मचारिणां परामर्शनस्य न्यूनतम सहमतेश्च आधारेणैव अधिनियम आनेष्यते इति विश्वासम् अदापयत्। नेपाले अष्टादश वर्षतोऽधिकवयः समूहस्य प्रतिशतं त्र्यशीत्या नागरिकैः कोरोना विषाणोः प्रतिरोधी टीकाकरणम् आहितमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन गतदिने आयोजिते नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डा संगीता मिश्रा अष्टादश वर्षतोऽधिकवयः समूहस्य प्रतिशतं पञ्चनवत्या नागरिकैः प्रथममात्रायाः प्रतिशतं त्र्यशीत्या नागरिकैः पूर्णमात्रायाः च टीकाकरणम् आहितमिति अबोधयत्। सर्वकारेण अस्यैव चैत्रस्य मासान्तं यावत् अष्टादश वर्षतोऽधिक वयः समूहस्य प्रतिशतं शते नागरिकेषु कोरोना विषाणोः प्रतिरोधिनः टीकाकरणस्य लक्ष्यं निर्धारितमिति प्रवक्ता डा मिश्रा अज्ञापयत्। एवमेव द्वादश वर्षतोऽधिकवयः समूहस्य प्रतिशतं चतुर्नवत्या नागरिकैः प्रथममात्रायाः प्रतिशतं एकाशीत्या नागरिकैः पूर्णमात्रायाः च टीकाकरणम् आहितमस्ति। अत्रान्तरे ह्यः अष्टात्रिंशति जनेषु कोरोना विषाणोः संक्रमणं पुष्टीभूतं वर्तते। ह्यः ऊनसप्तत्यधिकशतद्वयं जनाः संक्रमणात् मुक्ताः सन्ति। सम्प्रति आराष्ट्रं सहस्रद्वयं त्रिपञ्चाशदधिक चतुःशतं च कोरोना विषाणोः सक्रिय संक्रान्त जनाः सन्ति। सम्प्रति कोरोना विषाणोः आनुपातिक संक्रमणस्य अंकमानः प्रतिशतं 0.9% मन्त्रालयस्य प्रवक्ता डा मिश्रा असूचयत्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विधेन दलस्य द्वयोः भ्रातृ संगठनयोः नेपाल विद्यार्थी संघस्य नेपाल तरुण दलस्य च अध्यक्षपदे नियुक्तौ वर्तेते। गत फाल्गुन मासस्य तृतीये दिवसे उपविष्टस्य केन्द्रीय कार्य सम्पादन समितेः उपविष्टस्य निर्णयस्य अनुसारेण नेपाल विद्यार्थी संघस्य अध्यक्षपदे काष्ठमण्डपस्य दुजाङ शेर्पा, तरुण दलस्य अध्यक्षपदे पर्वत जनपदस्य विद्वान गुरूङ च प्रधानमन्त्रिणा देउवा विधेन नियुक्तौ इति दल कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन ह्यः प्रकाशितायां विज्ञप्तौ लिखितं वर्तते। स्थानीय स्तराणां प्रदेशसभायाः प्रतिनिधिसभा सदस्यानां च निर्वाचनस्य अन्तिम परिणाम प्राप्तेः त्रिमासं यावत् संघटनस्य अधिवेशनं सम्पादयितुम् अध्यक्षद्वयाय कार्यादेशोऽपि प्रदत्तो वर्तते इति समाचाराः।